इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचिका ऋचा झा। अथ वार्ताः। केन्द्रीय मन्त्री अमित शाहः अद्य कोलकाता नगरं सम्प्राप्स्यति। तस्य भाजपा दलस्य नवनिर्वाचित विधायकैः सह एकस्मिन् उपवेशने भागग्रहणस्य कार्यक्रमो वर्तते। अस्मिन्नवधौ दलस्य विधायक नेतुः चयनं भविष्यति। पश्चिमबंगालस्य राज्यपालः आरएन रविः ह्यः पश्चिमबंगालस्य विधानसभां भंगम अकरोत्। राज्यस्य नवमुख्यमन्त्री मन्त्रिपरिषदः च श्वः कविगुरु रवीन्द्रनाथ टैगोरवर्यस्य जयन्त्यवसरे शपथवचनं स्वीकरिष्यन्ति। भारतीय जनता पार्टी इति दलस्य विधायक दलस्य नेतुः चयनम् अद्य कोलकातायाम् एकस्मिन् उपवेशने भविष्यति, यस्य अध्यक्षतां केन्द्रीय गृह सहकारिता मन्त्री अमित शाहः करिष्यति। भाजपा दलस्य सर्वे नवनिर्वाचित विधायकाः अपि तत्र उपस्थिताः भविष्यन्ति इति। केरलम् राज्ये एआईसीसी इत्येतस्य पर्यवेक्षकैः प्रस्तुत प्रतिवेदनेभ्यः परामर्शानन्तरं नवदिल्ल्यां कांग्रेस द्वारा राज्यस्य नवमुख्यमन्त्रि विषये निर्णयस्य घोषणा भविष्यति। केपीसीसी इत्येतस्य अध्यक्षः सनी जोसेफ उक्तवान् यत् ह्यः तिरुवनन्तपुरम् इत्यत्र जातस्य विधायक दलस्य उपवेशने एआईसीसी इत्यस्य अध्यक्षाय कांग्रेस विधायक दलस्य नेतुः चयनायाधिकार प्रदातुम् एकः प्रस्तावः सर्वसम्मत्या अनुमोदितः। असौ एतदपि उक्तवान् यत् दिल्लीं प्रत्यागताः पर्यवेक्षकाः स्वीय निष्कर्षान् दलस्य राष्ट्रिय नेतृत्वाय समर्पयिष्यन्ति इति। असमराज्ये भाजपेति दलस्य नेतृत्वयुतम् एनडीए प्रशासनम् अस्य मासस्य द्वादशे दिनांके निरन्तरं तृतीयवारं शपथवचनं ग्रहीष्यति। भाजपेति दलस्य वरिष्ठनेतृणाम् उपस्थितौ ह्यः गुवाहाट्यां शपथग्रहणसमारोहस्य सम्बन्धे एकम् उच्चस्तरीयं सज्जतासम्बद्धोपवेशनम् आयोजितमासीत्। उपवेशनानन्तरं एकं वार्ताहरसम्मेलनं सम्बोधयन् राज्य भाजपाध्यक्षः दिलीप सैकिया संसूचितवान् यत् शपथग्रहणसमारोहं गुवाहाट्याः खानपारा स्थलस्य पशुचिकित्सा महाविद्यालयस्य क्रीडांगणे आयोजयिष्यते। असौ उक्तवान् यत् प्रधानमन्त्री नरेन्द्रमोदी अस्मिन् कार्यक्रमे मुख्यातिथिरूपेण सम्मिलितो भविष्यति। वाणिज्योद्योग मंत्री पीयूष गोयलः नवदिल्ल्यां वाणिज्य विभागस्य उद्योगान्तरिक व्यापार संवर्धन विभागस्य च अधिकारिभिः सह विचार विमर्श सत्रस्य अध्यक्षतां कृतवान्। सामाजिक संचार पटले एकस्मिन् लिखिते संदेशे श्री गोयलः उक्तवान् यत् निर्यातस्य निवेशस्य च वर्धनाय आकांक्षी निर्यातकेभ्यः अवसरान् उद्घाटयितुं नव वैश्विक विपणीनाम् उपयोगाय च एषा चर्चा केन्द्रिता आसीदिति। संचार मंत्री ज्योतिरादित्य सिंधिया अद्यारभ्य महाराष्ट्रस्य द्विदिवसीय आधिकारिक यात्रायां भविष्यति। अस्यां यात्रायां वैश्य विभागेन सम्बद्धैः प्रमुख कार्यक्रमैः सहैव मुंबई पुणे नगरयोः प्रमुख शैक्षणिक सार्वजनिक कार्यक्रमेषु सहभागिता सम्मिलिता भविष्यति। संचार मन्त्रालयेन संसूचितं यत् अद्य श्री सिंधिया महाराष्ट्रस्य मुख्यमन्त्रिणा देवेन्द्र फडणवीस इत्यनेन सह मुम्बय्याम् अंधेरी रेल स्थानक उपप्रेषालयस्य उद्घाटनं करिष्यति। आकाशवाणी स्वीय नवतितमस्य वार्षिकोत्सवस्य अवसरे अद्य राष्ट्रिय राजधान्यां मैराथन इत्यस्य आयोजनं करिष्यति। प्रायः 3.5 किलोमीटरमितं मैराथन इत्येतत् आकाशवाणी भवनात् आरभ्य कृषिभवनं रेलभवनं आरबीआई भवनं च गच्छति। आकाशवाण्याः दूरदर्शनस्य प्रसारभारत्याः च कर्मचारिणः स्वीय परिवारस्य सदस्यैः च सह अस्यां मैराथन क्रीडायां भागं ग्रहीष्यन्ति इति वार्ताः।